ॐ नमो भगवते वासुदेवाय। अथैकोनषष्टितमोऽध्यायः। राजोवाच, यथा हतो भगवता भौमो येन च ता स्त्रियः, निरुद्धाय तदा चक्ष्व विक्रमं शार्ङ्गधन्वनः। श्रीशुक उवाच, इन्द्रेण हृतच्छत्रेण हृतकुण्डलबन्धुना हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम्। सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ, गिरिदुर्गैः शस्त्रदुर्गैर्जलाग्न्यनिलदुर्गमम्, मुरपाशायुतैर्घोरैर्दृढैः सर्वतावृतम्। गदया निर्विभेदाद्रीन् शस्त्रदुर्गाणि सायकैः, चक्रेणाग्निम् जलम् वायुम् मुरपाशांस्तथासिना, शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम्। प्राकारम् गदया गुर्व्या निर्विभेदगदाधरः, पाञ्चजन्यध्वनिम् श्रुत्वा युगान्ताशनिभीषणम्। मुरःशयान्न उत्तस्थौ दैत्यः पञ्चशिराचलात्, त्रिशूलमुद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिरुल्बणः। ग्रसंस्त्रिलोकीमिव पञ्चभिर्मुखैरभ्यद्रवत्तार्क्ष्यसुतम् यथोरगः, आविद्यशूलम् तरसा गरुत्मते निरस्य वस्त्रैर्व्यनदत्स पञ्चभिः। सरोदसी सर्वदिशोऽन्तरम् महानापूरयन्नण्डकटाहमावृणोत्। तदापतद्वै त्रिशिखम् गरुत्मते हरीशराभ्यामभिनत्रिधौजसा, मुखेषु तम् चापि शरैरताडयत् तस्मै गदाम् सोऽपि रुषाव्यमुञ्चत। तामापतन्तीम् गदया गदामृधे गदाग्रजो निर्बिभिते सहस्रधा, उद्यम्य बाहून्नभिधावतोजितः शिरांसि चक्रेण जहारलीलया। व्यसूपपाताम्भसिकृत्तशीर्षो निकृत्तशृङ्गोद्रिरिवेन्द्रतेजसा, तस्यात्मजा सप्तपितुर्वधातुरा प्रतिक्रियामर्षजुषः समुद्यताः। ताम्रोऽन्तरिक्षः श्रवणो विभावसुर्वसुर्नभस्वा नरुणश्च सप्तमः, पीठम् पुरस्कृत्य चमूपतिम् मृधे भौमप्रयुक्ता निरगन्धृतायुधाः। प्रायुञ्जता साद्यशरानसीन् गदा शक्त्र्यष्टिशूलान्यजितेरुषोल्बणाः। तच्छस्त्रकूटम् भगवान् स्वमार्गणैरमोघवीर्यस्तिलसश्च कर्तः, तान् पीठमुख्याननयत् यमक्षयम् निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः। स्वानीकपानच्युतचक्रसायकैस्तथा निरस्तान् नरकोधरासुतः, निरीक्ष्य दुर्मर्षण आश्रवन्मदैर्गजैपयोधिप्रभवैर्निराक्रमत्। दृष्ट्वा सभार्यम् गरुडोपरिस्थितम् सूर्योपरिष्टात् सतनिद्घनम् यथा, कृष्णम् स तस्मै व्यसृजच्छतग्निम्, योधाश्च सर्वे युगपत्स्म विव्यसुः। तद्भौमसैन्यम् भगवान् गदाग्रजो विचित्रवादैर्निशितैः शिलीमुखैः, निकृत्तबाहोरुषिरोद्ध्रविग्रहम् चकारतर्येव हताश्वकुञ्जरम्। यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरुद्वः, हरिस्तान्यच्छिनत्तीक्ष्णैः शरैरैकैकशस्त्रिभिः। उह्यमानः सुपर्णेन पक्षाभ्याम् निघ्नता गजान्, गरुत्मता हन्यमानास्तुण्डपक्षनखैर्गजाः। पुरमेवाविषन्नार्ता नरको युध्ययुध्यत, दृष्ट्वा विद्रावितम् सैन्यम् गरुडेनार्दितम् स्वकम्। तम् भौमः प्राहरच्छक्त्या वज्रः प्रतिहतो यतः, नाकम्पततया विद्धो मालाहत इव द्विपः। शूलम् भौमोच्युतम् हन्तुमाददे विथतोद्यमः, तद्विसर्गात् पूर्वमेव नरकस्य शिरोहरिः। अपाहरत् गजस्थस्य चक्रेण क्षुरनेमिना, सकुण्डलम् चारु किरीटभूषणम् बभौ पृथिव्याम् पतितम् समुज्ज्वलत्। हा हेति साध्वित्रिषयः सुरेश्वरा माल्यैर्मुकुन्दम् विकिरन्त ईडिरे, ततश्च भूकृष्णमुपेत्य कुण्डले प्रतप्तजाम्बूनदरत्नभास्वरे। स वै जयन्त्या वनमालयार्पयत् प्राचेतसम् छत्रमथो महामणिम्, अस्तौ श्रीदथ विश्वेशम् देवी देववरार्चितम्। प्राञ्जले प्रणता राजन् भक्तिप्रवणया धिया। भूमिरुवाच, नमस्ते देवदेवेश शङ्खचक्रगदाधर, भक्तेच्छोपात्तरूपाय परमात्मन् नमोऽस्तु ते। नमः पङ्कजनाभाय, नमः पङ्कजमालिने, नमः पङ्कजनेत्राय, नमस्ते पङ्कजाङ्घ्रये। नमो भगवते तुभ्यं वासुदेवाय विष्णवे, पुरुषायादिबीजाय पूर्णबोधाय ते नमः। अजाय जनयित्रेस्य ब्रह्मणेऽनन्तशक्तये परावरात्मन् भूतात्मन् परमात्मन् नमोऽस्तु ते। त्वं वै शिशृक्षो रज उत्कटम् प्रभो तमो निरोधाय बिभर्ष्य संवृतः। स्थानाय सत्त्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः। अहं पयो ज्योतिरथानिलो नभो मात्राणि देवा मन इन्द्रियाणि। कर्ता महानित्यखिलं चराचरं त्वय्यद्वितीये भगवन्नयं भ्रमः। तस्यात्मजोऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः। तत्पालयैनं कुरु हस्तपङ्कजं शिरस्य मुस्याखिलकल्मषापहम्। श्रीशुक उवाच इति भूम्यार्चितो वाग्भिर्भगवान् भक्तिनम्रया दत्त्वा भयं भौमगृहं प्राविशत् सकलर्धिमत्। तत्र राजन्यकन्यानां षट्सहस्राधिकायुतं भौमारितानां विक्रम्य राजभ्यो ददृशे हरिः। तं प्रविष्टं स्त्रियो वीक्ष्य नरवीरं विमोहिताः मनसा वव्रिरे भीष्टं पतिं दैवोपसादितम्। भूयात्पतिरयं मह्यं धाता तदनुमोदताम् इति सर्वा पृथक् कृष्णे भावेन हृदयं ददुः। ता प्राहिणो द्वारवतीं सुमृष्टविरजोऽम्बराः नरयानैर्महाकोशान् रथास्वान् द्रविणं महत्। ऐरावतकुलेभांश्च चतुर्दन्तान्स्तरस्विनः पाण्डुरांश्च चतुःषष्टिं प्रेषयामास केशवः। गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले पूजितस्त्रिदशेन्द्रेण सहेन्द्राण्या च सप्रियः। चोदितो भार्ययोत्पाट्य पारिजातं गरुत्मति आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम्। स्थापितः सत्यभामाया गृहोद्यानोपशोभनः अन्वगुरुभ्रमराः स्वर्गात् तद्गन्धा सवलम्पटाः। यया च आनम्य किरीटकोटिभिः पादौ स्पृशन्नच्युतमर्थसाधनम्। सिद्धार्थ एतेन विगृह्यते महानहो सुराणां च तमोऽधिगाढ्यताम्। अथो मुहूर्त एकस्मिन्नानागारे सुताः स्त्रियः यथोपये मे भगवान् स्तावद्रूपधरो व्ययः। गृहे सुतासामनपाय्य तर्क्य कृन्निरस्तसाम्यातिशयेष्वस्थितः। रेमे रमाभिर्निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश्चरन्। इत्थं रमापतिमवाप्य पतिं स्त्रियस्ता ब्रह्मादयोऽपि न विदुः पदवीं यदीयाम्। भेजुर्मुदा विरतमेधितयानुरागहासावलोकनवसङ्गमजल्पलज्जाः। प्रत्युद्गमासनवरार्हणपादशौच ताम्बूलविश्रमणवीजनगन्धमाल्यैः केशप्रसारशयनस्नपनोपहार्यैर्दासीशता अपि विभोर्विदधुः स्म दास्यम्। ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे पारिजातहरणनरकवधो नामैकोनषष्टितमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।